भगवान विक्राम सरासने अभिदतो विराडज यद विराजो अधिपुरुषः स जातो अत्यर्च्यदवच्छाद् भूमिमद् पुरः तस्माद्दिग्धा बहुतः समृतं परिषद शाश्चक्रे वायव्या नारण्या ग्राम्याश्च जयत समाद्यज्ञातर्बहुतरे चाहसाम निजग्निरे छन्दाघोषेऽग्निरे तस्माद्याजुस्तस्माद्दजायत तस्माद्दस्मा चोभयादतः गावो हजग्निरे तस्माद्दस्माज्जात अजावयः पुरुखं जातमग्रतः तेन देवा अयजन्त सद्य ऋगश्च जेजत्पुरुखं यदधुः कतिधाव्यकल्पयन् मुखं किं स्यादेत् किं बाहुः किमुरुपादा उच्येत् ब्राह्मणोऽस्य मुखमासीत् बाहुः राजन्यः सूत्रो अजायत चंद्रमा वरसो जातश्चक्षोः सूर्यो अजायत श्रोत्राद्वायुश्च प्राणश्च मुखम् अजायत नाभ्या आसीदन्तरिक्षगं से श्रोत्योः समवृतता पद्भ्याम्भो मृदिशः लोकान् अग्लवयन्नाजत्पुरुखेण हविखा वसन्तोष्यासि राज्यं ग्रेखवायतमः शरद्धविः सप्तास्यासन्नपरिदस्त्रीः कृताः देवा जग्दग्नन्तन्नवाना अवधरन् पुरुखं पशुं वा जग्नेन जग्दमायजन्त देव सन्नाते हणकं महिमानः स चन्द्रपूर्वे साध्याः सन्ति देवाः ॐ माद्योः शान्तिरन्तरिक्षं शान्तिः प्रथमे शान्तिरोखरयः शान्तिः परस्पदयः शान्तर्वसुवे देवाः शान्तर्म शान्तिः सर्वज्ञं शान्तिः शान्तिरेव शान्तिः साम शान्तिरे जतो यतः शमीहसे दण्डः कुरुव्रजाभ्यो भयङ्गः पशुभ्यः ॐ शान्तिः 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 ॐ शान्तिर्भवतु हरिः ॐ
Okay. ओम गंगणपते नमः।